अथ तस्य कथञ्चिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् विससर्ज तदन्त्यमण्डनाम् अनलाया गुरुचन्दनैधसे।
अथेति अथ स्वजनः बन्धुवर्गः तस्य अजस्य अङ्कतः उत्सङ्गात् कथञ्चित् अपनीय तद्दिव्यकुसुमम् एव अन्त्यम् मण्डनम् अलङ्कारः यस्यास्ताम् ताम् सुन्दरीम् अगुरूणि चन्दनानि एधांसि इन्धनानि यस्य तस्मै अनलाय अग्नये विससर्ज्य विसृष्टवान्। क्रियाग्रहणम् अपि कर्तव्यम् इति क्रियामात्रप्रयोगे सन्तु
प्रमदामनुसंस्थितशुचा नृपतिः सन्निति वाच्यदर्शनात् न चकार शरीरमग्निसात् सह देव्या न तु जीविताशया।
प्रमदामिति नृपतिः अजः सन्नपि विद्वानपि शुचा शोकेन प्रमदामनु प्रमदया सह संस्थितः मृत इति वाच्यदर्शनात् निन्दादर्शनात् देव्या इन्दुमत्या सह शरीरम् अग्निसात् अग्न्यधीनम् न चकार। तदधीनवचने इति सातिप्रत्ययः जीविताशया प्राणेच्छया तु नेति।
अथ तेन दशाहतः परे गुणशेषाम् उपदिश्य भामिनीम् विदुषा विधयो महर्धयः पुर एवोपवने समापिताः।
अथेति अथ विदुषा शास्त्रज्ञेन तेन अजेन गुणा एव शेषाः रूपादयः यस्यास्ताम् गुणशेषाम् भामिनीम् इन्दुमतीम् उपदिश्य उद्दिश्य दशानाम् अह्नाम् समाहारः दशाहः तद्धितार्थ इत्यादिना समासः। समाहारस्य एकत्वात् एकवचनम् राजाः सखिभ्यश्टच् इति टच्, रात्रान्नाः पुंसि इति पुंवत्, ततः तसिल्। तस्मात् दशाहतः परे ऊर्ध्वम् कर्तव्याः महर्धयः महासमृद्धयः विधयः क्रियाः पुरः पुर्या उपवने उद्याने एव समापिताः सम्पूर्णम् अनुष्ठिताः। दशाहतः इत्यत्र विप्रशुद्ध्येद्दशाहेन द्वादशाहेन भूमिपः इति मनुवचनविरोधः नाशङ्कनीयः। तस्य निर्गुणक्षत्रियविषयत्वात् गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः। क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिः इति सूच्यते अस्यापि गुणवत्त्वम् विदुषा इत्यनेन।
स विवेश पुरीम् तया विना क्षणदापाय शशाङ्कदर्शनः परिवाहमिवावलोकयन् स्वशुचः पौरवधूमुखाश्रुषु।
स इति तया इन्दुमत्या विना क्षणदायाः रात्रेः अपाये अपगमे यः शशाङ्कः चन्द्रः स इव दृश्यते इति क्षणदापायशशाङ्कदर्शनः प्रातःकालिकचन्द्र इव दृश्यमान इत्यर्थः। दृश्यते इति कर्मार्थे ल्युट्, सः अजः पौरवधूमुखाश्रुषु स्वशुचः स्वशोकस्य परिवाहम् जलोच्छ्वासमिव अवलोकयन् जलोच्छ्वासाः परीवाहाः इत्यमरः स्वदुःखपूरातिशयमिव पश्यन् पुरीम् विवेश। वधूग्रहणात् तस्याम् इन्दुमत्याम् सख्याभिमानात् అజసమాన దుఃఖ సూచక పరివాహోక్తిః నిర్వహతి.
అథ తం సవనాయ దీక్షితః ప్రణిధానాద్ గురురాశ్రమస్థితః అభిషంగ జడం విజగ్నివాన్ ఇతి శిష్యేణ కిలాన్వబోధయత్.
అథేతి అథ సవనాయ యాగాయ దీక్షితః గురురు వశిష్ఠః ఆశ్రమే స్వకీయాశ్రమే స్థితః సన్ తమ్ అజమ్ అభిషంగ జడమ్ దుఃఖమోహితమ్ ప్రణిధానాత్ చిత్తైకాగ్ర్యాత్ విజగ్నివాన్ జ్ఞాతవాన్. క్వసుశ్చ ఇతి క్వసు ప్రత్యయః ఇతి వక్ష్యమాణ ప్రకారేణ శిష్యేణ అన్వబోధయత్ కిల బుధేః ణ్యంతాత్ నిచి లంగ్.
అసమాప్త విధిర్యతో మునిః తవ విద్వానపి తాపకారణం న భవంతముపస్థిత స్వయం ప్రకృతౌ స్థాపయితుం పథశ్చ్యుతం.
అసమాప్తేతి యతో హేతోః మునిః అసమాప్త విధిః అసమాప్త క్రతుః తతః తవ తాపకారణం దుఃఖహేతుం కలత్రనాశరూపం విద్వాన్ జానన్నపి విదేశ్యతుర్వసుః ఇతి వస్వాదేశః నలోక ఇత్యాదినా షష్ఠీ ప్రతిషేధః. పథశ్యుతం స్వభావాత్ భ్రష్టం భవంతం ప్రకృతౌ స్వభావే స్థాపయితుం సమాశ్వాసయితుం ఇత్యర్థః. స్వయం నోపస్థితః నాగతః.
మయితస్య సువృత్త వర్తతే లఘు సందేశ పదా సరస్వతీ శృణు విశ్రుత సత్వసారతాం హృది చైనాం ఉపధాతుమర్హసి.
మయీతి హే సువృత్త సదాచార సందిశ్యత ఇతి సందేశః సందేష్టవ్యార్థః. తస్య పదాని వాచకాని లఘూని సంక్షిప్తాని సందేశపదాని యస్యాంసా లఘు సందేశపదా తస్య మునేః సరస్వతీ వాంగ్మయి వర్తతే. హే విశ్రుతసత్వసార ప్రఖ్యాతధైర్యాతిశయ తాం సరస్వతీం శృణు. ఏనాం వాచం హృది ఉపధాతుం ధర్తుం చ అర్హసి.
పురుషస్య పదేష్వజన్మనః సమతీతం చ భవచ్చ భావి చ సహి నిష్ప్రతిఘేన చక్షుషా త్రితయం జ్ఞానమయేన పశ్యతి.
పురుషస్యేతి అజన్మనః పురుషస్య పురాణపురుషస్య భగవతః త్రివిక్రమస్య పదేషు విక్రమేషు త్రిభువనేషు అపీత్యర్థః. సమతీతం భూతం చ భవద్వర్తమానం చ భావి భవిష్యచ్చేతి త్రితయం స మునిః నిష్ప్రతిఘేన అప్రతిబంధేన జ్ఞానమయేన చక్షుషా జ్ఞానదృష్ట్యా పశ్యతిః. అతః తదుక్తిషు న సంశయితవ్యం ఇత్యర్థః. లోకత్రయే కాలత్రయస్య వార్తాం గురుర్వశిష్ఠః జానాతీతి భావః.
చరతః కిల దుశ్చరం తపః తృణబిందోః పరిశంకితః పురా ప్రజిఘాయ సమాధిభేదినీం హరిరస్మై హరిణీం సురాంగనాం.
చరత ఇతి పురా కిల దుశ్చరం తీవ్రం తపః చరతః తృణబిందోః తృణబిందునామకాత్ కస్మాచ్చిదృశేః పరిశంకితః భీతః కర్తరిక్తః. భీత్రార్థానాం భయహేతుః ఇత్యపాదానాత్ పంచమీ. హరిః ఇంద్రః समाधिभेदिनीम् तपोविघातिनीम् हरिणीम् नाम सुराङ्गनाम् अस्मै तृणबिन्दवे प्रजिघाय प्रेरितवान्।
स तपः प्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् अशपत्भवमानुषीतिताम् शमवेला प्रलयोर्मिणा भुवि।
स इति स मुनिः शमः शान्तिरेव वेला मर्यादा तस्याः प्रलयोर्मिणा प्रलयकालतरङ्गेण शमविघातकेन इत्यर्थः। अभ्यम्बु विकृतौ वेला कालमर्यादयोरपि इत्यमरः। तपसः प्रतिबन्धेन विघ्नेन यः मन्युः क्रोधः तेन हेतुना प्रमुखे अग्रे आविष्कृतचारुविभ्रमाम् प्रकाशितमनोहरविलासाम् ताम् हरिणीम् भुवि भूलोके मानुषी मनुष्यस्त्री भवेति अशपत् सशाप।
भगवन् परवानयम् जनः प्रतिकूलाचरितम् क्षमस्व मे इति चोपनताम् क्षितिस्पृशम् कृतवान् आसुरपुष्पदर्शनात्।
भगवन्निति हे भगवन् महर्षे अयम् जनः परः अस्यास्तीति स्वामित्वेन परवान् पराधीनः। अयम् इति आत्मनिर्देशः अहम् पराधीनेत्यर्थः। मे मम प्रतिकूलाचरितम् अपराधम् क्षमस्व इत्यनेन प्रकारेण उपनताम् शरणागताम् च हरिणीम् आसुरपुष्पदर्शनात् सुरपुष्पदर्शनपर्यन्तम् क्षितिम् स्पृशतीति क्षितिस्पृक् ताम् क्षितिस्पृशम् मानुषीम् कृतवान् अकरोत्। दिव्यपुष्पदर्शनम् शापावधिः इत्यनुगृहीतवान् इत्यर्थः।
क्रथकैशिकवंशसम्भवा तव भूत्वा महिषी चिरायसा उपलब्धवती दिवस्च्युतम् विवशा शापनिवृत्तिकारणम्।
क्रथेति क्रथकैशिकानाम् राज्ञाम् वंशे सम्भवः यस्याः सा हरिणी तव महिषी अभिषिक्ता स्त्री कृताभिषेका महिषी इत्यमरः। भूत्वा चिराय दिवः स्वर्गात् च्युतम् पतितम् शापनिवृत्तिकारणम् सुरपुष्परूपम् उपलब्धवती विवशा अभूदिति शेषः। मृता इत्यर्थः।
तदलम् तदपायचिन्तया विपदुत्पत्तिमताम् उपस्थिता वसुधेयमवेक्ष्यताम् त्वया वसुमत्या हि नृपाः कलत्रिणः।
तदिति तत्तस्मात् तस्याः अपायचिन्तया अलम् तस्याः मरणम् न चिन्त्यम् इत्यर्थः। निषेधक्रियाम् प्रति करणत्वात् चिन्तयेति तृतीया। कुतो न चिन्त्यम् अत आह उत्पत्तिमताम् जन्मवताम् विपद्विपत्तिः उपस्थिता सिद्धा जातस्य हि ध्रुवो मृत्युः इत्यर्थः। तथापि कलत्ररहितस्य किम् जीवितेन तत्राह। त्वया इयम् वसुधा भूमिः अवेक्ष्यताम् पाल्यताम् हि यस्मात् नृपाः वसुमत्या पृथिव्या कलत्रिणः कलत्रवन्तः। अतः न शोचितव्यम् इत्यर्थः।
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया मनसस्तदुपस्थिते ज्वरे पुनरक्लीवतया प्रकाश्यताम्।
उदय इति उदये अभ्युदये सति मदेन यद्वाच्यम् निन्दा दुःखम् तत् उज्यता परिहरता सत्यपि मदहेतौ अमाद्यता त्वया यत् आत्मवत् अध्यात्मप्रचुरम् श्रुतम् शास्त्रम् तज्जनितम् ज्ञानमिति यावत् आविष्कृतम् प्रकाशितम् तच्छ्रुतम् मनसः ज्वरे संतापे उपस्थिते प्राप्ते अक्लीबतया धैर्येण लिंगेन पुनः प्रकाश्यताम् विदुषा सर्वास्वस्थास्वपि धीरेण भवितव्यम् इत्यर्थः
रुदता कुत एव सा पुनः भवता नानुमृतापि लभ्यते परलोकजुषाम् स्वकर्मभिः गतयो भिन्नपथा हि देहिनाम्
रुदतेति रुदता भवता सा कुत एव लभ्यते न लभ्यत एव अनुम्रियत इति अनुमृत् क्विप् तेन अनुमृता अनुमृतवतापि भवता पुनः न लभ्यते कथम् न लभ्यत इत्याह परलोकजुषाम् लोकान्तरभाजाम् देहिनाम् गम्यन्त इति गतयः गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैः भिन्नपथाः पृथक्कृतमार्गा हि परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनात् न मृतेनापि लभ्यत इत्यर्थः
अपशोकमनाः कुटुम्बिनीम् अनुगृह्णीष्व निवापदत्तिभिः स्वजनाश्रुकिलातिसन्ततम् दहति प्रेतमिति प्रचक्षते
अपशोकमना इति किन्तु अपशोकमनाः निर्दुःखचित्तः सन् कुटुम्बिनीम् पत्नीम् निवापदत्तिभिः पिण्डोदकादिदानैः अनुगृह्णीष्व तर्पयेत्यर्थः अन्यथा दोषम् आह अतिसन्ततम् अविच्छिन्नम् स्वजनानाम् बन्धूनाम् बन्धुस्वस्वजनाः समाः इत्यमरः अश्रु कर्तृ प्रेतम् मृतम् दहतीति प्रचक्षते मन्वादयः किल अत्र याज्ञवल्क्यः श्लेष्माश्रुबन्धुभिर्मुक्तम् प्रेतो भुङ्क्ते यतो वशः अतो न रोदितव्यम् हि क्रियाः कार्यास्वशक्तितः इति
मरणम् प्रकृतिशरीरिणाम् विकृतिर्जीवितमुच्यते बुधैः क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननुलाभवानसौ
मरणमिति शरीरिणाम् मरणम् प्रकृतिः स्वभावः ध्रुवमित्यर्थः जीवितम् विकृतिः यादृच्छिकम् बुधैः उच्यते एवम् स्थिते जन्तुः प्राणी क्षणमपि अत्यन्तसंयोगे द्वितीया श्वसन् जीवन् अवतिष्ठते यद्यसौ क्षणजीवी लाभवान् ननु जीवने यथालाभम् सन्तोष्टव्यम् अलभ्यलाभात् मरणे तु न शोचितव्यम् अस्य स्वाभाव्यादिति भावः अत्र मरणशब्देन स्थूलशरीरत्यागः अवगन्तव्यः
अवगच्छति मूढचेतनः प्रियनाशम् हृदि शल्यमर्पितम् स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम्
अवगच्छतीति मूढचेतनः भ्रान्तबुद्धिः प्रियनाशम् इष्टनाशम् హృది అర్పితం నిఖాతం శల్యం శంకుం అవగచ్చతి మన్యతే. స్థిరధీహి విద్వాంస్తు తదేవ శల్యం సముద్ధృతం ఉత్ఖాతం మన్యతే ప్రియనాశే సతీతి శేషః. కుతః కుశలద్వారతయా ప్రియనాశస్య మోక్షోపాయతయా ఇత్యర్థః. విషయలాభ వినాశయోః యథాక్రమం హితాహిత సాధనత్వాభిమానః పామరాణాం విపరీతం తు విపశ్చితాం ఇతి భావః.
స్వశరీర శరీరిణావపి శ్రుతసంయోగ విపర్యయౌ యదా విరహః కిమివానుతాపయేత్ వద బాహ్యైర్విషయైర్విపశ్చితం.
స్వశరీరేతి స్వస్య శరీర శరీరిణౌ దేహాత్మానౌ అపి యదా యతః శ్రుతౌ శ్రుత్యవగతౌ సంయోగ విపర్యయౌ సంయోగ వియోగౌ యయోస్తౌ తథోక్తౌ తదా బాహ్యైః విషయైః పుత్రమిత్ర కలత్రాదిభిః విరహః విపశ్చితం విద్వాంసం కిమివ అనుతాపయేత్ త్వం వద. నకించిదిత్యర్థః అథవా స్వశబ్దస్య శరీరేణైవ సంబంధః.
న పృథక్ జనవచ్చుచో వశం వశినాముత్తమ గంతుమర్హసి ద్రుమసానుమతాం కిమంతరం యది వాయౌ ద్వితయేపి తే చలాః.
నేతి హే వశినాం ఉత్తమ జితేంద్రియవర్య పృథగ్జనవత్ పామరజనవత్ శుచః శోకస్య వశం గంతుం నార్హసి తథా హి ద్రుమసానుమతాం తరుశిఖరిణాం కిమంతరం కో విశేషః. వాయౌ సతి ద్వితయేపి ద్విప్రకారా అపి ప్రథమచరమ ఇత్యాదినా జసి విభాషయా సర్వనామ సంజ్ఞా. తే ద్రుమసానుమంతః చలాః చంచలా యది సానుమతామపి చలనే ద్రుమవత్ తేషామపి అచల సంజ్ఞా న స్యాత్ ఇత్యర్థః.
స తథేతి వినేతురుదారమతేః ప్రతిగృహ్య వచో విససర్జమునిం తదలబ్ధ పదం హృది శోక ఘనే ప్రతియాతమివాంతికమస్య గురోః.
స ఇతి సహ అజః ఉదారమతేః వినేతుః గురోః వశిష్ఠస్య వచః తచ్ఛిష్యముఖేరితం తథా ఇతి ప్రతిగృహ్య అంగీకృత్య మునిం వశిష్ఠ శిష్యం విససర్జ ప్రేషయామాస. కింతు తద్వచః శోకఘనే దుఃఖసాంద్రే అస్య అజస్య హృది అలబ్ధపదం అప్రాప్తావకాశం సత్ గురోః వశిష్ఠస్య అంతికం ప్రతియాతమివ ప్రతినివృత్తం కిము. ఇత్యుత్ప్రేక్షా తోటకవృత్తమేతత్ ఇహ తోటకమంబుధిసైః ప్రథితం ఇతి తల్లక్షణం.
తేనాష్టౌ పరిగమితాః సమాః కథంచిత్ బాలత్వాదవితథ సూనృతేన సూనోః సాదృశ్య ప్రతికృతి దర్శనైః ప్రియాయాః స్వప్నేషు క్షణిక సమాగమోత్సవైశ్చ.
తేనేతి అవితథం యథార్థం సూనృతం ప్రియవచనం యస్య తేన అజేన సూనోః పుత్రస్య బాలత్వాత్ రాజ్యాక్షమత్వాత్ ఇత్యర్థః. ప్రియాయాః ఇందుమత్యాః సాదృశ్యం వస్తువంతరగతం ఆకారసామ్యం ప్రతికృతిః చిత్రం తయోః దర్శనైః స్వప్నేషు క్షణికాః క్షణభంగురాః ఏ సమాగమోత్సవాః తైశ్చ. कथञ्चित् कृच्छ्रेण अष्टौ समाः वत्सराः संवत्सरो वत्सरोब्दो हायनो स्त्री शरत्समाः इत्यमरः परिगमिताः अतिवाहिताः उक्तञ्च वियोगावस्थासु प्रियजनसदृक्षानुभवनम् ततश्चित्रम् कर्म स्वपनसमये दर्शनमपि तदङ्गस्पृष्टानाम् उपगतवताम् स्पर्शनमपि प्रतीकारः कामव्यथितमनसाम् कोऽपि कथितः इति प्रकृते सादृश्यादि त्रितयाभिधानम् तदङ्गस्पृष्ट पदार्थस्पृष्टेरपि उपलक्षणम् प्रहर्षिणीवृत्तमेतत्
तस्य प्रसह्य हृदयम् किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलम् बिभेद प्राणान्तहेतुमपि तम् भिषजामसाध्यम् लाभम् प्रियानुगमने त्वरया समेने
तस्येति शोक एव शङ्कुः कीलः शङ्कुः कीले शिवेऽस्त्रे च इति विश्वः तस्य अजस्य हृदयम् प्लक्षप्ररोहः सौधतलमिव प्रसह्य बलात् किल बिभेद सः अजः प्राणान्तहेतुम् मरणकारणमपि भिषजाम् असाध्यम् अप्रतिसमाधेयम् तम् शोकशङ्कुम् रोगपर्यवसितम् प्रियायाः अनुगमने त्वरया उत्कण्ठया लाभम् मेने तद्विरहस्य अतिदुःसहत्वात् तत्प्राप्तिकारणम् मरणमेव वरम् इत्यमन्यत इत्यर्थः
सम्यग् विनीतमथ वर्महरम् कुमारम् आदिश्य रक्षणविधौ विधिवत् प्रजानाम् रोगोपसृष्टतनु दुर्वसतिम् मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव
सम्यगिति अथ नृपतिः अजः सम्यग् विनीतम् निसर्गसंस्काराभ्याम् विनयवन्तम् वर्महरतीति वर्महरः कवचधारणार्हवयस्कः वयसि च इति अच्प्रत्ययः तम् कुमारम् दशरथम् प्रजानाम् रक्षणविधौ राज्ये विधिवत् विध्यर्हम् यथाशास्त्रमित्यर्थः तदर्हम् इति वतिप्रत्ययः आदिश्य नियुज्य रोगेण उपसृष्टायाः व्याप्तायाः तनोः शरीरस्य दुर्वसतिम् दुःखावस्थितिम् मुमुक्षुः जिहासुस्सन् प्रायोपवेशने अनशनावस्थाने मतिः यस्य सः बभूव प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि इति विश्वः अत्र पुराणवचनम् समासक्तो भवेद्यस्तु पातकैर्महदादिभिः दुश्चिकित्स्यैः महारोगैः पीडितो वा भवेत्तु यः स्वयम् देहविनाशस्य काले प्राप्ते महामतिः आब्रह्मणो वा स्वर्गादिमहाफलजिगीषया प्रविशेज्ज्वलनम् दीप्तम् कुर्यादनशनम् तथा एतेषामधिकारोऽस्ति नान्येषाम् सर्वजन्तुषु नराणामथ नारीणाम् सर्ववर्णेषु सर्वदा इति अनयोः वसन्ततिलकाच्छन्दः तल्लक्षणम् उक्ता वसन्ततिलका तभजा जगौ गः इति
तीर्थे तोयव्यतिकर भवे जह्नु कन्यासरैवोः देहत्यागादमरगणनालेख्यमासाद्य सद्यः पूर्वाकाराधिकतररुचा सङ्गतः कान्तयासौ लीलागारेश्वरमत पुनर्नन्दनाभ्यन्तरेषु।
तीर्थ इति असौ अजः जह्नुकन्यासरयुवोः तोयानाम् जलानाम् व्यतिकरेण संभेदेन भवे तीर्थे गङ्गासरयुसङ्गमे देहत्यागात् सद्य एव अमरगणनायाम् लेख्यम् लेखनम् तयोरेव कृत्यक्तखलर्थाः इति भावार्थे ण्यत्प्रत्ययः आसाद्य प्राप्य पूर्वस्मात् आकारात् अधिकतरा ऋक् यस्याः तया कान्तया रमण्या सङ्गतः सन् नन्दनस्य इन्द्रोद्यानस्य आभ्यन्तरेषु अन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनः अरमत यथा कथञ्चित् तीर्थेऽस्मिन् देहत्यागम् करोति यः तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि इति स्कान्दे मन्दाक्रान्ता छन्दः तल्लक्षणम् मन्दाक्रान्ता जलधिषडगैर्भौनतौ ताद्गुरूचेत् इति महामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितया सञ्जीविनीसमाख्यया व्याख्यया समेतः महाकवि श्रीकालिदासकृतौ रघुवंशे महाकाव्ये अजविलापो नाम अष्टमः सर्गः।